कुमार प्रणत मौलिमणि प्रभाण मुद्योतकं दलित पापतमो वितानं सम्यक् प्रणम्य जिनपादयुगं युगादा वालंबनं भवजले पततां जनानां सकलवाङ्मय तत्त्वबोधादुद्भूत बुद्धिपटुभिः सुरलोकनाथैः स्तोत्रैर्जगत्त्रितय चित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् शान्मुनीश कर्तुं स्तवं विगत शक्तिरपि प्रवृत्तः प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्रं नाभेति किं निजशिशोः परिपालनार्थम् श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरी कुरुते बलान् मां यत्कोकिलः किल मधौ मधुरं विरोति तच्चारुचाम्रकलिकानिकरैकहेतुः తవస్తవ నమస్త సమస్త దోషం వత్సం తథాపి జగతాం దురితాని హంతి దూరే సహస్ర కిరణ కురుతే ప్రభైవ పద్మాకరేషు జలజాని వికాశ భాంజి. విలోకనీయం నాన్యత్ర తోషముపయాతి జనస్య చక్షుః పీత్వా పయః శశికరద్యుతి దుగ్ధ సింధోః క్షారం జలం జలనిధేరసితుం క ఇచ్ఛేత్. పరమాణుభిస్త్వం నిర్మాపితస్త్రిభువనైకలలామభూత తావంత ఏవ ఖలు తే ప్యణవ పృథివ్యాం యత్తే సమానమపరం నహి రూపమస్తి. నిర్జిత జగత్ త్రితయోపమానం బింబం కలంకమలినం క్వ నిశాకరస్య యద్వాసరే భవతి పాండుపలాశకల్పం.
స్త్రీజగదీశ్వరనాథమేకం కస్త
ಪವರ್ಜಿತೈಲಪೂರ ಕೃತ್ಸ್ನಂ ಜಗತ್ತ್ರಯಮಿದಂ ಪ್ರಕಟೀಕರೋಷಿ ಗಮ್ಯೋನ ಜಾತು ಮರುತಾಂಚಲಿತಾಚಲಾನಾಂ ದೀಪೋ ಪರಸ್ತ್ವಮಸಿ ನಾಥ ಜಗತ್ ಪ್ರಕಾಶ ಸ್ಪಷ್ಟೀಕರೋಷಿ ಸಹಸಾ ಯುಗಪಜ್ಜಗಂತಿ ನಾಂಭೋಧರೋದರ ನಿರುದ್ಧ ಮಹಾಪ್ರಭಾವ ಸೂರ್ಯಾತಿಶಾಯಿ ಮಹಿಮಾಸಿ ಮುನೀಂದ್ರಲೋಕೆ ಶಕಲೆ ಕಿರಣಾಕುಲೇಪಿ ಶತಶೋ ಜನಯಂತಿ ಪುತ್ರಾಂ ನಾನ್ಯಾಸುತಂ ತ್ವದುಪಮಂ ಜನನೀ ಪ್ರಸೂತಾ ಸರ್ವಾದಿಶೋ ದಧತಿ ಭಾನಿ ಸಹಸ್ರರಶ್ಮಿಂ ಪ್ರಾಚ್ಯೇವ ದಿಗ್ಜನಯತಿ ಸ್ಫುರದಂಶುಜಾಲಂ Thank you. परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्रपन्था संख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुं योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः श्रितो निरवकाशतया मुनीश दोषैरुपात विविधाश्रय जात गर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि तरुसंश्रितमुन्मयूख मा भाति रूपममलं भवतो नितान्तं स्पष्टोल्लसत्किरणमस्ततमो वितानं बिम्बं रवेरिव पयोधर पार्श्ववर्ति कनकावदातं बिम्बं वियत् विलसदंशुलतावितानं तुं त्रयं तव विभाति शशांक कांत मुच्चै स्थितं स्थगित भानुकर प्रतापं मुक्ता फल प्रकर जाल विवृद्ध शोभं प्रख्यापयत्रि जगतः परमेश्वरत्वम् पारिजात संतान कादि कुसुमोत्कर वृष्टि रुद्धा गंधोद बिंदु शुभ मंद मरुत प्रपाता दिव्या दिव पतति ते वच सांत तिर्वा
पद
उपदेशन विधौ न तथा परस्य यादृक् प्रभादिन कृतः प्रहतांधकारा तादृक् कुतो ग्रहगणस्य विकाशिनो तन्मदा विलविलोलकपोलमूल मत्तभ्रमद्भ्रमरनाद विवृद्धकोपम् ऐरावताभमिभमुद्धतमापतन्तम् दृष्ट्वा भयं भवति नो भवदाश्रितानाम्
भिन्नेभ कुम्भगलदुज्ज्वलशोणितात् मुक्ता फलप्रकरभूषित भूमिभागः बद्धक्रमः क्रमगतम् हरिणा नाक्रामतिक्रमयुगाचल संश्रितं ते
कल्पान्तकालपवनोद्धतवह्निकल्पं तावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गं विश्वं जिगत्सुमिव सम्मुखमापतन्तं त्वन्नाम कीर्तन जलं शमयत्त शेषम् रक्ते क्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् आक्रामतिक्रमयुगेन निरस्तशङ्कस्त्वन्नाम नागदमनी हृदयस्य पुंसः
वल्गत्तुरङ्गगजगर्जित भीमनाद माजौ बलं बलवतामपि भूपतीनाम् शिखा पवित्रम् त्वत्कीर्तनात्तमहिवाशुभिदामुपैति
कुन्ताग्रभिन्नगजशोणितवारिवाह वेगावतार तरणातुरयोध भीमे युद्धे जयं विजित दुर्जय जेय पक्षास्त्वत्पाद पंकज वनाश्रयिणो लभन्ते निधौ क्षुभित भीषण नक्र चक्र पाठीन पीठ भयदोल्वण वाडवाग्नौ रंगतरंग शिखर स्थित यान पात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति
उद्भूत भीषण जलोदर भार भुग्नाः शोचां दशामुपगताश्च्युत जीविताशाः त्वत्पाद पंकज रजोमृत दिग्ध देहा मर्त्या भवन्ति मकरध्वज तुल्य रूपाः
आपाद कंठ मुरु श्रृंखल वेष्टितांगा गाढं बृहन्निगढ कोटि निगृष्ट जंघा त्वन्नाम मंत्र मनिशं मनुजा स्मरन्तः सद्य स्वयं विगत बंध भया भवन्ति तद्विपेन्द्र मृगराज दवानलाहि संग्राम वारिधि महोदर बंधनोत्थम् तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते स्रजं तव जिनेन्द्र गुणैर्निबद्धा भक्त्या मया रुचिरवर्ण विचित्र पुष्पां धत्ते जनो य इह कण्ठगतामजस्रम् तं मानतुङ्गमवशासमुपैति लक्ष्मी